ोभे आत्री भद्यया पादस्वर्मीयच्छतु मय्येवास्तु मयि श्रुतम् भुवे सोमम् सविता गन्नवोभिर्विश्वानादित्या आवुत्तरत्वे यद्दीर्घमेव स धातैरिद्धो प्रतिपृमद्भिः प्रातरग्निम् प्रातरिन्द्रम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् भूषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रम् भवामहे अनुव्रतः पितुः पुत्रो मात्रा भवतु सम्मानाः जायापत्येव धूमतीम् वाचम् वदतु शन्तिवा रोहण्यसि रोहण् छिन्नस्य रोहाणी रोहयेदमरुन्धति सञ्जाने त्वम् सम्पृच्य ध्वंसम् भोमनांसि जानताम् देवाभागम् यथा पूर्वे सञ्जाना उपासते अयम् दर्भो विमन्युकस्वाय चारणाय च मन्योर्विमन्युकस्यायम् मन्युशमान उच्यते त्रिर्ममो न वाग्रयच्छति मध्ययामयौषधे केशा नटा इव वर्धन्ताम् शीर्षस्ते असिताः परि प्राणाय नमो यस्य सर्वमिदम् वशे यो भूतः सर्वस्येश्वरो यस्मिन् सर्वम् प्रतिष्ठितम् उदीराणा उदासीनास्तिष्ठन्तः प्रक्रामन्तः पद्भ्याम् दक्षिणसव्याभ्याम् वा व्यधिष्महि भूम्याम् इहे माविन्द्रसन्नोदचक्रवाके वदम्पदी प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् उद्यते नमः उदायते नमः उदीताय नमः विराजे नमः स्वराजे नमः सम्राजे नमः पश्येम शरदशतम् जीवेम शरदशतम् बुद्ध्येम शरदशतम् रोहेम शरदशतम् भूषेम शरदशतम् भवेम शरदशतम् भूयेम शरदशतम् भूयसि शरदशतात्।